ಕಣ್ಣಪ್ರಿಯ ಸಾಗರೇ ಸಲೀಲಾವಗಾಹಿ ಆಕಾಶವಾಣ್ಯಾಃ ಸಂಪ್ರಸಾರ್ಯಮಾಣೆ ಮಧ್ಯಾಹ್ನಕಾಲೆ ಸಂಸ್ಕೃತ ಸಾಪ್ತಾಹಿಕೀ ನಾಮಾಭಿಧೇಯಕೆ ಕಾರ್ಯಕ್ರಮೇ ಭವತಾಂ ಸಮೇಷಾಂ ಅಭಿನಂದನಂ ನಮಸ್ಕರೋಮ್ಯಹಂ ಕಾರ್ಯಕ್ರಮಸ್ಯ ಉದ್ಘೋಷಿಕಾ ರಿಚಾ ಝಾ. ಶ್ರೋತಾರಃ, ಕಸ್ಯಚಿದಪಿ ಕಾರ್ಯಕ್ರಮಸ್ಯಾರಂಭೆ ಮಂಗಲವಚನಾನಾಂ ಗೀತಾನಾಂ ಪರಂಪರಾಂ ವಯಂ ಪಶ್ಯಾಮಃ. ಯೇನ ಹಿ ಶುಭಕಾರ್ಯೇಣ ಮಂಗಲಂ ನಿಶ್ಚಪ್ರಚಂ ಭವತಿ ತರ್ಹಿ ಸುಭಾಷಿತಕ್ರಮೇಪಿ ನಿಧಿಃ ಝಾ ಮಂಗಲಾತ್ಮಕಂ ವಚನಂ ಕಥಯತಿ. ಆಯಾಂತು ಅಂಗೀಕುರುವಂತು ಏನಂ ಪ್ರಭಾಗಂ.
ದಿವಸೇನೈವ ತತ್ಕುರ್ಯಾದ್ ಯೇನ ರಾತ್ರೌ ಸುಖಂ ವಸೇತ್, ಯಾವತ್ ಜೀವಂ ಚ ತತ್ಕುರ್ಯಾದ್ ಯೇನ ಪ್ರೇತ್ಯ ಸುಖಂ ವಸೇತ್.
ಧನ್ಯವಾದಾಃ ಭವತ್ಯೈ.
ಅರ್ಥಾತ್, ದಿನ ಭರ್ ಐಸಾ ಕಾಮ್ ಕರೋ ಜಿಸ್ಸೆ ರಾತ್ ಮೇ ಚೈನ್ ಕಿ ನೀಂದ ಆ ಸಕೆ. ವೈಸೆ ಹಿ ಜೀವನ್ ಭರ್ ಐಸಾ ಕಾಮ್ ಕರೋ ಜಿಸ್ಸೆ ಮೃತ್ಯು ಕೆ ಪಶ್ಚಾತ್ ಸುಖ ಮಿಲೆ, ಅರ್ಥಾತ್ ಸದ್ಗತಿ ಪ್ರಾಪ್ತ ಹೋ. ಧನ್ಯವಾದ.
ಕಾರ್ಯಕ್ರಮಸ್ಯ ವಿಷಯ ವಸ್ತುಷು ಸಾಂಪ್ರತಂ ಸಮಯಃ ಸಮಾಗತಃ ಪ್ರಸಂಗಾನುಭಾಗಸ್ಯ. ಸಾರಲ್ಯೇನ ವಾದಯಂತ್ರೈಶ್ಚ ಸಹ ಗಾನಂ ಕರೋತಿ ಅಸ್ಮಾಕಂ ಸಹಯೋಗಿ ನರೇಂದ್ರದತ್ತ ಸೇಮವಾಲಃ.
ಪ್ರಾತಃ ಸ್ಮರಾಮಿ ಲಲಿತಾ ವದನಾರವಿಂದಂ ವಿಂಬಾಧರಂ ಪ್ರಿಥುಲಮೋಕ್ತಿಕಶೋಭಿನಾಸಂ ಆಕರ್ಣದೀರ್ಘನಯನಂ ಮಣಿಕುಂಡಲಾಢ್ಯಂ ಮಂದಸ್ಮಿತಂ ಮೃಗಮದೋಜ್ವಲಭಾಲದೇಶಂ ಪ್ರಾತರ್ವದಾಮಿ ಲಲಿತೆ ತವ ಪುಣ್ಯನಾಮ ಕಾಮೇಶ್ವರೀತಿ ಕಮಲೇತಿ ಮಹೇಶ್ವರೀತಿ ಶ್ರೀಶಾಂಭವೀತಿ ಜಗತಾಂ ಜನನೀ ಪರೇತಿ ವಾಗ್ದೇವತೇತಿ ವಚಸಾ ತ್ರಿಪುರೇಶ್ವರೀತಿ.
ಸಾಧುವಾದಾಃ ಭವತೆ. ಐ ಸುರಭಾರತಿ ಸಮುಪಾಸಕಾಃ ಶ್ರೋತಾರಃ, ಪರಿವರ್ತನಶೀಲ ಜಗತಿ ಪ್ರತಿದಿನಂ ಪ್ರಚಲ್ಯಮಾಣಾಂ ವಾರ್ತಾಂ ಪ್ರತಿ ಅದ್ಯತನೀಯ ಭಾವಃ ಅದ್ಯತ್ವೇ ಸಮಾಜೇ ಅತ್ಯಪೇಕ್ಷಿತೋ ವರ್ತತೆ. ದೇಶ ವಿದೇಶಯೋಃ ವಾರ್ತಾಃ ಆದಾಯ ಪ್ರಸ್ತುತಾ ಅಸ್ತಿ ಕಾರ್ಯಕ್ರಮಸ್ಯ ಸಹಭಾಗಿನೀ ದ್ರುತವಾಹಿನೀ ಸುಷಮಾ ಕುಮಾರೀ.
ಕೇಂದ್ರೇಣ ವಿಪಣನ ಸತ್ರ ಆಗಾಮಿ ಪರ ಆಗಾಮಿ ಸತ್ರಾಯ ಚ ಕೃತೆ ರಬಿ ಸಸ್ಯಾನಾಂ ನ್ಯೂನತಮ ಸಮರ್ಥನ ಮೂಲ್ಯ ವೃದ್ಧಿಃ ಕೃತಾ. ವಾರಾಣಸ್ಯಾಂ ಪಂಡಿತ ದೀನ ದಯಾಲ ಉಪಾಧ್ಯಾಯ ಮಲ್ಟಿ ಟ್ರ್ಯಾಕಿಂಗ್ ಇತಿ ನಾಮಧೇಯ ಪರಿಯೋಜನಾ ಅಪಿ ಅಭಿಸಂಸ್ತುತ. ಮಂತ್ರಿಮಂಡಲೇನ ಕೇಂದ್ರ ಪ್ರಾಶಾಸನಿಕ ಕರ್ಮಚಾರಿಭ್ಯಃ ಮಹಾರ್ಘತಾ ಅನುಷದಾನೇ 3% ವೃದ್ಧಿಃ ಅಭಿಸ್ವೀಕೃತ. ಭಾರತೀಯ ಜನತಾ ಪಾರ್ಟೀತಿ ದಲೀಯ ನೇತಾ ನಾಯಬ್ ಸಿಂಹಃ ಹರಿಯಾಣಾಯಃ ಮುಖ್ಯಮಂತ್ರಿ ಪದಾಯ ಶಪಥಂ ಅಂಗೀಕೃತವಾನ್. ವಿದೇಶಮಂತ್ರಿಣಾ ಎಸ್ ಜಯಶಂಕರೇಣೋಕ್ತಂ ಯತ್ ಭಾರತದೇಶೇನ ಇಸ್ಲಾಮಾಬಾದೇ SCO इति विचार विमर्श मञ्चेन सकारात्मक रचनात्मक कार्यच्च योगदानं प्रदत्तम्। नाइजीरिया देशे ईंधनभण्डारण विस्फोटे 94 जनाः मृताः, 50 आहताः सूच्यन्ते। भारत न्यूजीलैंड देशयोर्मध्ये बेंगलुरु क्रीडांगणे प्रथम क्रिकेट अभ्यासस्य प्रथम दिवसस्य प्रतिस्पर्धा वर्षा कारणात् स्थगिता जाता।
श्रोतारः, भवतां ज्ञान संवर्धने अस्मिन् ज्ञान विज्ञान प्रभागे उपस्थितो वर्तते गोस्वामी गिरधारी लाल प्राच्य विद्या प्रतिष्ठानस्य निर्देशकः डॉक्टर जीतराम भट्ट महोदयः। तेन सह संवादं करोति अस्माकं सहयोगी युवराज भट्टराई।
नमो नमः प्रिय श्रोतारः, अद्यतन संस्कृत साप्ताहिकीति कार्यक्रमे सम्भाषणार्थम् उपस्थितः विशिष्टः अतिथिरस्ति अनेक शास्त्र व्युत्पन्नः सर्वश्लाघ्य चरितः नैक संस्कृत संवर्धन कार्यक्रमाणां प्रवर्तकः समन्वयकः प्रखर प्रवक्ता दिल्ली संस्कृत अकादम्याः हिन्दी मैथिली भोजपुरी अकादमीनां च प्राक्तनः सचिवः गोस्वामी गिरिधारीलाल प्राच्य विद्या प्रतिष्ठानस्य वर्तमानः निदेशकः आचार्यः डॉक्टर जीतराम भट्ट महोदयः। मान्य महोदय, अत्र भवतः स्वागतीकरणाय अवसरं प्राप्य अयम् युवराज भट्टराई आत्मानं परम धन्यं मनुते। संस्कृत साप्ताहिकी कार्यक्रमे हार्दम् अभिनन्दनमस्ति।
नमो नमः युवराज भट्टराई महोदय, तत्र आकाशवाण्यः अस्मिन् कार्यक्रमे अहम् आगतवान्, मम सौभाग्यं वर्तते।
अस्तु महोदय, कथ्यते यत् पुरा काले भारतं शैक्षिकदृशा ज्ञान विज्ञान धार्मिकदृशा दार्शनिकरीत्या च सर्वथा समृद्धम् अवर्तत। अतः सर्वादौ अहं ज्ञातुमिच्छामि यत् तदानीन्तन प्राचीन भारतीय शिक्षा पद्धतिः कीदृशी आसीत्। कृपया संक्षिप्य प्रतिपाद्यताम्।
सत्यमेव युवराज भट्टराई महोदय, तत्र विश्वस्मिन् विश्वे केवलं केवलं भारतदेशः एव एतादृशः आसीत् यत्रत्या शिक्षा पद्धतिः समृद्धा आसीत्।
एवम्
अस्माकं शिक्षा पद्धतिः तत्र वैज्ञानिकी शिक्षा पद्धतिः आसीत्, यस्याम् छात्रस्य सर्वाङ्गीणः विकासः भवति स्म।
एवम्
तत्र या पद्धतिः अस्माकम् आसीत् तस्याः नाम आसीत् गुरुकुल शिक्षा पद्धतिः।
सत्यम्।
गुरुकुल शिक्षा पद्धतिः तत्र यथा प्राचीना वर्तते तथैव नवीना आधुनिकी अपि वर्तते।
एवम्
अस्यां पद्धतो छात्रः तत्र गुरुकुले तत्र गुरोः समीपे गुरो सकाशात् सः तत्र शिक्षां प्राप्य यदा समाजे गच्छति
एवम्
तदा समाजस्य कृते राष्ट्रस्य कृते परिवारस्य कृते न केवलं स्वकीयस्य देशस्य कृते अपि तु विश्वस्य कृते एकः योग्यः नागरिकः भवति स्म।
सत्यम्।
तस्मिन् सन्दर्भे बहवः तत्र उदाहरणाः सन्ति, यथा अस्माकं ये आराध्या सन्ति भगवान् श्रीरामचन्द्रः भगवान् श्रीकृष्णः, तेषां तु तत्र आदर्शः तत्र विश्वस्मिन् विश्वे प्रसिद्धः अस्ति एव।
एवम्
तेषां तत्र विकासः शिक्षः गुरुकुले एव तत्र भवति स्म।
एवं तत्र सान्दीपनी आश्रमे
तत्र वसिष्ठस्य तत्र विश्वामित्रस्य भवन्तः जानन्ति एव,
सुदाम्नः कृष्णस्य च तत्र सख्यता
सख्यता अपि तत्र, यत् गुरुकुलीया एव सा शिक्षा आसीत्।
एवं
तस्याः एव शिक्षायाः प्रभावः यत् तादृश्यं सख्यं
तत्र निर्धनता धनढ्यता इति द्वयोः मध्ये भेदः नासीत्,
कोऽपि भेदः नास्ति,
युक्पदेव उपविश्य पठन्ति स्म इति भवन्तः। अस्तु महोदय आचार्यवर, अहम् अग्रेसरामि तावत्। संस्कृत साहित्ये ज्ञानस्य महन् महत्वम् अस्ति प्रतिपादितम्, भवद्भिः अत्र प्रोक्तमपि, परम् अहं ज्ञातुमिहे यत् कीदृशं किमर्थं च अस्ति ज्ञानस्य महात्म्यम्, अथ च किम् शिक्षा विद्या ज्ञानम् चेत्यादयः ये शब्दाः संस्कृतवाङ्मये प्रयुक्ताः ते समानार्थकाः एव सन्ति उत पृथक् पृथक् अवधारणा अस्ति समेषाम्, तद्विषये किमपि प्रतिपादितम्?
नै नै, तत्र समानार्थी तु न सन्ति, यतः किमस्ति अधुना जना तेषाम् प्रयोगः समानार्थी शब्देषु कुर्वन्ति।
एवम् एवम्।
किन्तु ते यतः ते नहि जानन्ति, किन्तु अस्माकं शिक्षा पद्धतो यादृग् व्यवस्था आसीत्, तादृश्यां शिक्षाव्यवस्थायाम् अस्माकं किम् आसीत्, ज्ञानं तु ज्ञानम् आसीत्, विद्या तु विद्या आसीत्, अतत्र शिक्षा तु शिक्षा आसीत्। तु शिक्षा तु किं भवति तत्र, शिक्षणं तु प्रशिक्षणं, तत्र किं भवति तत्र कस्यापि कौशलस्यापि शिक्षणं भवति,
दक्षता
सम्पादनाय तत्र शिक्षणं भवति। तत्र ज्ञानं किम् अस्ति, अधुना भवन्तः एकम् उदाहरणम् अहं ददामि, यत् यथा अधुना तत्र ज्ञानाय तु जनाः अधुना प्रयोगं कुर्वन्ति गूगल् गुरु,
एवं
तु गूगल् गुरु अपि तत्र ज्ञानं ददाति,
नालेज् इति
नालेज् वर्तते, ज्ञाति तत्र गूगल् गुरु तु सम्यक् ज्ञानं करोति, स तत्र तस्य तत्र विस्मरणमपि न भवति।
एवं
तत्र अधुना आर्टिफिशियल् इण्टेलिजेन्सि अपि तत्र
प्रयुज्यते,
तत्र ज्ञानं तु तेन माध्यमेन अपि भवति।
विद्या खलु
विद्या खलु मुण्डकोपनिषदि उक्तं, विद्या खलु परा अपरा द्वे विद्ये वेदितव्ये, तु तर्हि विद्यायाः महत्वं केवलं केवलं संस्कृत शिक्षा पद्धतौ, संस्कृत शास्त्रेषु तथा च संस्कृत ऋषिभिः एव प्रतिपादितम्।
अस्माकं संस्कृत परम्परायां
परम्परायाः माध्यमेन एव तत्र विद्यायाः अवज्ञानम् अवबोधनं ज्ञातुं शक्यते।
अस्तु, तर्हि एते शब्दाः पृथक् पृथक् एव अवधारणायुताः सन्ति। अस्तु महोदय, भट्ट महोदय, संस्कृतसाहित्यं तु वैदिककालादेव नारदं प्रवहति, यतोहि प्रथमः कालः खलु वैदिककालः इति अस्माभिः मन्यते। अहं बोद्धुमिच्छामि यत् वैदिककालाद् अधुना यावत् शिक्षायाः ज्ञानस्य च या परम्परा विकसिताः सन्ति, कथं विकसिता उत परिवर्तिता सन्ति अधुना यावत्, अस्मिन् विषये किमस्ति भवतः अभिमतम्?
किमस्ति अधुना तु तर्हि किमस्ति, भौतिकवादस्य तत्र पराकाष्ठा वर्तते।
एवं
तत्र किम् आसीत्, वैदिककाले तु यथा भवद्भिः पूर्वमेव तत्र स्वकीय प्रश्ने तत्र स्पष्टं कृतं यत् ज्ञानं विद्या अथवा शिक्षा, तु पूर्वस्मिन् समये तत्र विद्याया अधिकं महत्वम् आसीत्, जनाः तत्र छात्राः वा विद्याया कृते प्रवृत्ताः भवन्ति स्म।
एवं
तत्र तस्मिन् समये तत्र शिक्षा पद्धतौ विद्याया कृते जनेषु छात्रेषु च अधिका प्रवृत्ति आसीत्, तत्र श्रुतिमाध्यमेन स्मृतिमाध्यमेन
सत्यं
तत्र शिक्षायाः व्यवस्था आसीत्। अधुनापि ये जनाः तत्र इच्छन्ति
एवं
ते स्मृतिमाध्यमेन एव तत्र शिक्षां ग्रहीतुं तत् प्रवृत्ता भवन्ति।
एवं
यतः स्मृतिमाध्यमेन श्रुतिमाध्यमेन एव या शिक्षा भवति या विद्या भवति सा एव तत्र चिरन्तनी भवति।
एवं तर्हि श्रुतिविद्या तु वैदिकी विद्या भवति, स्मृतिकालः मनूनाम् इत्यादिनां याज्ञवल्कादिऋषीणां याः स्मृतयः लभ्यन्ते,
यथा अत्र उक्तं यथा द्वयो एव तत्र यदि वयं साधारणीकृत्य तत्र वक्तुं पारयामः, यदि यथा वयं तत्र जानीमः ज्ञानं भारः क्रियां विना,
एवं सत्यं,
तर्हि किम् अस्ति, श्रुतिः ज्ञानम्
एवं
स्मृतिः क्रिया।
अस्तु अस्तु, क्रियात्वेन अस्माभिः प्रवर्तते,
क्रियात्वेन तत्र श्रुति स्मृति तत्र द्वयो यदि चेत् तत्र अवबोधनं भवति, तर्हि छात्रः विद्यायाम् अथवा शिक्षायाम् अथवा ज्ञाने पारङ्गता भवति। यथा अस्माकम् अधुना शिक्षा पद्धतौ अपि अस्ति यत् छात्रस्य सर्वाङ्गीण विकासः आवश्यकः, छात्रे तत्र प्रवृत्तीनां विकासः आवश्यकता, चरित्रनिर्माणः आवश्यकः,
प्रयोगेण ज्ञानम् इति प्रयोगेण ज्ञानम्। अस्तु अस्तु महोदय, संस्कृतवाङ्मये नैके शिक्षाग्रन्थाः समुपलभ्यन्ते, साम्प्रतिके समये तेषां प्रासङ्गिकतायाः उपयोगितायाः च विषये किमपि उच्यताम्?
किमस्ति युवराज भट्टराय महोदय, किमस्ति यत् अधुना वयम् अस्माकं मिथ्याभासः वर्तते, मिथ्या आभासः
इति,
मिथ्या आभासः किं वर्तते यत् एजुकेशन् इति शिक्षा इति वदन्ति आङ्ग्लभाषायां, यत् येऽपि सिद्धान्ता तत्र शिक्षाशास्त्री कक्षासु अपि तत्र पाठयन्ति जना, यत् अवधारणा तत्र पाश्चात्यदेशेभ्यः आगता,
एवं
तत्र पाठयन्ति।
सत्यं
किम् अस्ति, अस्माकं परम्परायां षोडशाद् अधिकः ऋषयः अभवन् येषां तत्र शिक्षाशास्त्राणि सन्ति,
एवं
यथा याज्ञवल्कः वर्तते, वसिष्ठः वर्तते, तत्र पाणिनिः वर्तते,
एवं
तत्र हारितः वर्तते,
एवं
तत्र शङ्खः वर्तते,
एवं
लिखितः वर्तते,
एवं
तत्र शशिर्शिक्षाग्रन्थः वर्तते,
एवं
तु षोडशाधिक, तत्र शिक्षा कीदृशी भवेत्, तत्र न केवलं शिक्षा पद्धति,
एवं
पृथक् पृथक् विषया ये भवन्ति, यथा पाणिनि शिक्षायां उच्चारणस्य एव तत्र भवन्तः जानन्ति एव उच्चारणस्यैव तत्र विशदेन तत्र चर्चा वर्तते.
एवम् एवम् अस्ति. पाणिनीय तु अस्ति. भवता सम्भाषणार्थं नैजः बहुमूल्यः समयः कल्पितः. एतदर्थं भवते भूयांशु धन्यवादाः.
धन्यवादाः. नमो नमः सर्वेभ्यः श्रोतृभ्यः अपि धन्यवादः.
अहो रुचिकरः संवादः एषः. धन्यवादाः भवते. श्रोतारः संस्कृतं प्रति जिज्ञासेभ्यः श्रोतृजनेभ्यः अधुना प्रस्तुतमिदं दिग्दर्शनम्. अनुभागोऽयं कथ्यते अस्माकं सहयोगिन्या निधि तिवारी इत्यनया.
भारत सर्वकारस्य शिक्षामन्त्रालयस्य संस्कृत संवर्धन योजनायाम् आन्तरिक गुणवत्ता आश्वासन प्रकोष्ठ दर्शन विभागस्य च संयुक्त तत्वावधाने त्रिदिवसीय अखिल भारतीय संस्कृत सम्मेलनम् केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री रघुनाथ कीर्ति परिसरे नवम्बर मासस्य पञ्चदश दिनांकतः सप्तदश दिनांकं यावत् आयोज्यते. केन्द्रीय संस्कृत विश्वविद्यालय संस्कृत भारती सत्यवती महाविद्यालयानां संयुक्त तत्वावधाने आयोक्ष्यमाणं त्रिदिवसीय अन्ताराष्ट्रिय संस्कृत विदुषी सम्मेलनं नवम्बर मासस्य पञ्चदश दिनांकतः सप्तदश दिनांकं यावत् दिल्ली विश्वविद्यालयस्य सत्यवती महाविद्यालये आयोजयिष्यते. अपि च डॉ हरिसिंह गौर विश्वविद्यालयस्य संस्कृत विभागेन वैदिक वाङ्मये विज्ञानमिति विषयम् अवलम्ब्य त्रिदिवसीय अखिल भारतीय वैदिक संगोष्ठी आयोजयिष्यते. एषा संगोष्ठी नवम्बर मासस्य द्वादश दिनांकात् चतुर्दश दिनांक पर्यन्तं प्रचलिष्यति. यस्याम् अनेके विद्वांसः शोधार्थिनः च शोधपत्राणि प्रस्तोष्यन्ति. नमो नमः.
अस्तु बालाः, समागतो अस्ति भवतां प्रभागः यस्मिन् जतिन शर्मा एकां कथां श्रावयति.
अयि भू बालाः, अद्य वयं पिपासितः काकः इतीमां कथां शृणुमः. एकः काकः आसीत्. सः पिपासितः आसीत्. सः जलं पातुम् इच्छति स्म. सः सर्वत्र भ्रमणं कृतवान्, किन्तु जलं न दृष्टवान्. सः एकम् उद्यानं गतवान्. तत्र एकः घटः आसीत्. काकः घटं दृष्टवान्. घटे अल्पं जलमासीत्. काकः जलं पातुं चेष्टां कृतवान्, किन्तु तस्य मुखं जलं न स्पृशति स्म. काकः अत्र तत्र दृष्टवान्, तस्य बुद्धिः न स्फुरति स्म. सः तदा शिलाखण्डसमूहं दृष्टवान्. ततः एकैकं शिलाखण्डम् आनीतवान्, तथैव शिलाखण्डं घटे पातितवान्. ततः जलम् उपरि आगतम्. काकः जलं पीत्वा सानन्दं गतवान्.
आशास्ति यत् इयं कथा भवद्भ्यः सर्वेभ्यः रुचिकरा भवेदिति. प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागस्य अनन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र अस्माकं सहयोगी दीपक सोलंकी श्रावयति हिन्दी संस्कृत गुजराती मराठी बांग्ला पंजाबी भाषासु कानिचन वाक्यानि.
हिंदी: निरोगी कौन है? हितकर भोजन करने वाला, मात्रा में खाने वाला तथा ऋतु के अनुसार भोजन करने वाला. संस्कृत: को रुख, हित भुख, मित भुख, ऋत भुख. गुजराती: स्वस्थ कौन छे? जे तंदुरुस्त खोराक खाए छे, मात्रा में खाए छे अने ऋतु प्रमाण खाए छे. मराठी: निरोगी कोण आहे? हितकर भोजन करणारा, प्राणामात खाणारा आणि ऋतु अनुसार खाणारा होय. बांगला: निरोगी के जिनी स्वास्थ्यकर खाबर खान, सठिक परिमाण अनुयायी खान तथा ऋतु अनुसार खान. पंजाबी: तंदुरुस्त कोण है? पौष्टिक खाना खाण वाला, लोड मुताबिक खाना खाण वाला या ऋतु अनुसार खाना खाण वाला.
नूनमेव रुचिकरः स्यात् अयम् सङ्गमः. अयि श्रोतृवृन्दाः, अधुना तु कालः समायातः प्रस्थानवेलायाः. अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवमेकम् अङ्कम् आदाय पुनः उपस्थास्यामहे. तावत्पर्यन्तम् भवन्तः सर्वे स्वीयजिज्ञासाम् प्रतिपुष्टि प्रक्रियाम् अस्मभ्यम् प्रेषितुम् शक्नुवन्ति. अस्माकम् ईमेल सङ्केतो वर्तते nsdsanskrit@gmail.com. नमो नमः.